नायं श्रियोऽङ्गवुनितान्तरते प्रसादः स्वर्योषितां नलिनगन्धरुचां कुतोऽन्याः रासोत्सवेस्य भुजदण्डगृहीतकण्ठ लब्धाशिषां यौदगाद्ब्रजसुन्दरीणाम्।